इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। प्रियाः श्रोतारः, भवद्भ्यः सर्वेभ्यः होली पर्वणः हार्दाः शुभाशयाः। अथ वार्ताः। विदेशमन्त्रिणा डॉ एस जयशंकरेण उक्तम् यत् 70+300 इति अनुच्छेदः भारतीय संविधानस्य अस्थायी उपायः आसीत्। तस्य विस्तारेण राष्ट्रस्य हानिः अभवत्। सिंगापुरे भारतीय समुदायैः सह संवादं कुर्वता डॉ जयशंकरेण उक्तं यत् 70+300 इति अनुच्छेदः तस्मिन् समये जम्मूकश्मीर लद्दाख क्षेत्रेषु प्रगतिशील विधीनां विस्तारे अवरोधः आसीत्। रूसदेशेन सह भारतस्य सम्बन्ध विषये प्रवदता डॉ जयशंकरः अवदत् यत् रूसदेशेन सह भारतस्य सम्बन्धाः सदैव सकारात्मकम् एव सन्ति। मॉस्को नगरस्य क्रोकस नगर भवने आततायिनाम् आक्रमणे मृतकानां संख्या 33+100 अभवत्। रूसदेशस्य अन्वेषण समितेः उद्धरणं कृत्वा रूसदेशस्य वार्ता प्रवाहिका ताश इत्यनेन उक्तं यत् अन्वेषणं प्रचलति, संगीतभवनात् मलिनावशेषस्य निष्कासनं प्रचलति। रूस स्वास्थ्य मन्त्रालयस्य अनुसारं 47+100 जनाः व्रणिताः। रूसदेशेन उक्तं यत् चतुर्भिः भुशुण्डिधारकैः सह 11 जनाः निगडिताः। अत्र भारते रूसदूतावासेन आततायिनाम् आक्रमणे पीडितानां परिवारान् प्रति शोकं प्रकटयितुं जनानां कृते अन्तर्जालीय शोक पुस्तकम् आरब्धमस्ति। अस्मिन् अन्तर्जाल पुस्तके जनाः स्वीय शोकसन्देशं वा मृतकं प्रति स्वीय समर्थनं सहानुभूतिञ्च टिप्पणी विभागे लिखितुं शक्नुवन्ति। क्रोकस नगरस्य सभागारे आततायी आक्रमणस्य उत्तरदायित्वं इस्लामिक स्टेट खोरासान इत्यनेन आततायी संघटनेन स्वीकृतमस्ति। रूसस्य सुरक्षा सेवायाः कथनानुसारं आक्रमणकारिणां सम्बन्धाः यूक्रेन देशेन सह आसन्, अतः ते समीपस्थं देशं यूक्रेन देशं प्रति पलायनं कृतवन्तः। यूक्रेन देशेन आक्रमणे स्वीय संलग्नतायाः आरोपाः लज्जापूर्णा इति वर्णिताः। अमेरिकादेशेन उक्तं यत् इस्लामिक स्टेट खोरासान इत्यस्य कथनं विश्वसनीयमस्ति, तथा च यूक्रेन देशः अस्य आक्रमणस्य उत्तरदायी नास्ति इति विश्वसिति। केन्द्रसर्वकारेण अग्रिम आदेशपर्यन्तं पलाण्डुनिर्यात प्रतिबन्धः विस्तारितो वर्तते। अन्तर्देशीय उपलब्धतां वर्धितुं पलाण्डुमूल्यस्य नियन्त्रणाय च एषः निर्णयः स्वीकृतः। विदेशव्यापारमहानिदेशालयेन अधिसूचनायाम् उक्तं यत् पलाण्डुनिर्यात प्रतिबन्धः एषमः मार्च मासस्य 31 दिनांकं यावत् स्थापितः आसीत्। अधुना अग्रिम आदेशपर्यन्तं तस्य विस्तारः क्रियते। गतवर्षस्य दिसम्बर मासे सर्वकारेण पलाण्डुनिर्याते प्रतिबन्धः कृतः आसीत्, परन्तु मित्रदेशेभ्यः पलाण्डुनिर्यातस्य अनुमतिः प्रकरणान्तरेण कृता वर्तते। आईपीएल इत्यस्य क्रिकेट मालिका प्रतिस्पर्धायां जयपुरस्य सवाई मानसिंह क्रीडांगणे राजस्थान रॉयल्स इत्यनेन दलेन लखनऊ सुपर जॉइंट्स इत्येतं दलं 20+ धावनांकैः पराजितम्। तत्रैव द्वितीय प्रतिस्पर्धायां अहमदाबादस्य नरेन्द्र मोदी क्रीडांगणे गुजरात टाइटन्स इत्यनेन दलेन मुंबई इंडियंस इत्येतं दलं 6+धावनांकैः पराजितम्। इति वार्ताः।